नमस्कारः
आरम्भं कुर्मः सहनावतु
सहनो भुनक्तु
सहनौ भुनक्तु
सह वीर्यं करवावहै
सह वीर्यं करवावहै
ॐ शान्ति शान्ति शान्तिः ध्येय मन्त्र गायामः पठामि संस्कृतं नित्यं
पठामि संस्कृतं नित्यं
वदामि संस्कृतं सदा
वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक्
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
संस्कृतस्य प्रसाराय नैजं सर्वं ददामयम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमानहुतं मन्ये आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्
संस्कृतमातरम्
समीचीनं धन्यवादः
क्षम्यतां भगिनि
संस्कृत न शेर् कृतवती क्षम्यतां किञ्चित् इण्टर्नेट् क्लेशः अस्ति अत्र समीचीनं न अद्य चलति क्षम्यताम् अद्य वयं सर्वे जनाः न दृश्यते अद्य वयं किं पठामः सप्तमी विभक्ति कुत्र कुत्र भवति किञ्चित् कृपया ध्यानेन शृणोतु सप्तमी विभक्ति कुत्र कुत्र भवति अद्य स्लैड्स् न शेर् कृतवती एतत् कारणेन कृपया बहु ध्यानेन शृण्वन्तु सप्तमी विभक्ति कुत्र कुत्र भवति. सर्वेषां सर्वेषां वस्तुनि सर्वेषां वस्तूनां कोऽपि आधारः अस्ति. सर्वेषाम् आधारः अस्ति. अहं कुत्र उपविशामि? अहम् आसन्दाहे आसन्दहे उपविशामि. गृहे एकः शुनकः अस्ति. शुनकः कुत्र अस्ति? गृहे अस्ति. शुनकः आधारः कः? गृहं गृहं. शुनकः आधारः गृहम् अस्ति. यदा अहम् आसन्दहे उपविशामि, मम आधारः कः? मम आधारः आसन्दः अस्ति. सो सर्वत्र यत्र यत्र आधारः अस्ति तत्र तत्र सप्तमी विभक्ति भवति. सर्वेषां वस्तूनां कोऽपि आधारः, एवं यः आधारः भवति तत्. अवगतं किम्? यत्र यत्र आधारः तत्र तस्य सप्तमी विभक्ति भवति. सो एकमत्र उदाहरणेन बेङ्गलूरुनगरे जयनगरम् अस्ति. बेङ्गलूरुनगरे जयनगरम् अस्ति. जयनगरं कुत्र अस्ति? बेङ्गलूरुनगरे. जयनगरम् आधारः किम् अस्ति? बेङ्गलूर्. तो अतः तस्य आधारस्य विभक्ति सप्तमी भवति. यः आधारः अस्ति तस्य विभक्ति सप्तमी भवति. अन्य उदाहरणेन यः कोऽपि आसक्तिः अस्ति, उदाहरणेन मम महती संस्कृतध्या अध्ययनं महती आसक्तिः अस्ति. आसक्तिः आधारः किम्? आसक्तिः आधारः संस्कृतस्य. सो आसक्ति संस्कृतध्यायने मम महती आसक्तिः अस्ति. सो आसक्तेः आधारः संस्कृताध्या अध्ययनम्. एषः विषयरूप आधारः अस्ति. एषः विषयरूप आधारः अस्ति. प्रथमः कोऽपि स्थानस्य आधारः अस्ति. अत्र विषयरूप आधारः अस्ति. तृतीय एव उदाहरणम् अस्ति. तृतीया यदि कोऽपि स्नेहः अस्ति, कुत्रापि स्नेहः अस्ति, तत्र आधारः किम् अस्ति? उदाहरणेन माता पुत्रे विशेषतः स्नेहयति. स्नेहस्य आधारः किं? पुत्र. अतः अतः पुत्रः सप्तमी विभक्ति भवति. क्षम्यताम्. सो तस्य सप्तमी विभक्ति भवति. अत्र एकं दृश्यते वा? स्क्रीन् शेर् कृतवती अहं.
दृश्यते दृश्यते भगिनि.
सो अत्र एकः चषकः अस्ति. चषका चषके जलमस्ति. जलस्य आधारः किम् अस्ति? चषकः अस्ति. आधारस्य विभक्ति सप्तमी भवति. अत्र किञ्चित् कूपी अस्ति. कूपे कूप्यां मषि अस्ति. कूप्यां मषि अस्ति. मष्याः आधारः किं? कूपी. अतः कूपी कूप्यां कूप्याः सप्तमी विभक्ति भवति. कूप्यां कक्षा अस्ति, छात्राः सन्ति. कक्षायां छात्राः सन्ति. विमला भगिनी, किञ्चित् विमानम् अस्ति, तस्य चित्रस्य विवरणं करोतु कृपया.
विमानम् अस्ति, यात्रिकाः सन्ति. विमाने यात्रिकाः सन्ति.
यात्रिकाः आधारः किं?
सन्ति. यात्रिकाः आधारः विमानम्.
अतः विमानस्य सप्तमी विभक्ति भवति.
विमानस्य सप्तमी विभक्ति विमाने.
विमानस्य सप्तमी विभक्ति विमाने भवति. अवगतम्? विमानस्य सप्तमी
विभक्ति विमाने अस्ति.
रामः अस्ति, वनम् अस्ति, नदी अस्ति, लता अस्ति. सो रामेः एकं वाक्यं रचयतु. क्षम्यतां, प्रथमः रमेश महोदय, विवरणं कर्तुं शक्यते वा? एतत् छात्राः सन्ति, कक्षा अस्ति, आधारः किम्?
आधारः कक्षा.
कृपया बेक्ग्रौण्ड् नोट्.
कक्षा
कक्षा अस्ति. कक्षा आधार भवति. सो कक्षायाः सप्तमी विभक्ति किं? कक्षायां.
कक्षायां
तु कक्षायां छात्राः सन्ति.
छात्राः सन्ति.
भानुमती भगिनी, एतत् विवरणं करोतु कृपया.
चषकः अस्ति, जलम् अस्ति, चषके जलम् अस्ति.
जलस्य
आधारं
चषकं. जलस्य आधारः चषकः अस्ति. अतः चषके
चषके जलम् अस्ति.
अस्तु, नैना भगिनी कृपया एतत् चित्रं विवरणं करोतु.
कूपी अस्ति, मषि अस्ति, कूप्यां मषि अस्ति. सो मषि का आधार कूपी. कूपी का सप्तमी कूप्यां.
मष्याः लैक् नद्याः. कूपी कूप्याः सप्तमी विभक्ति किं? कूप्यां.
कूप्यां
कूप्यां
कूपीस्य सप्तमी विभक्ति कूप्यां अस्ति.
अन्य उदाहरणं, सीता अस्ति, रामः अस्ति. सीता रामस्य बहु आसक्ति अस्ति. आसक्ति अस्ति. संगीता
आसक्ति मीन्स् लव्
इस् लैक् अटेच्मेण्ट्
अटेच्मेण्ट् अटेच्मेण्ट् ओके
आसक्ति सो सीता सीता आसक्ति रामे भवति. सो कथं वाक्य कथं भवति?
रामे सीतायां रामे सीताः सीता आसक्ति अस्ति. रामे सीता
रामे सम्यक् अस्ति. रामे आसक्ति अस्ति. रामे आसक्ति अस्ति इन् रामे आधारः रामः अस्ति. अतः रामः रामस्य सप्तमी विभक्ति रामे भवति. रामे आसक्ति अस्ति. का आसक्ति अस्ति? सीता. सीतायाः रामे महती आसक्ति अस्ति.
सो सीतायाः विल् बि सीता विल् बि विच् विभक्ति? सीतायाः इस्
षष्टि.
सो इट् इस् अ काम्बिनेशन् आफ् सप्ति अण्ड् षष्टि.
नो, वि आर् मेन्लि स्टडिङ्ग् सप्तमी विभक्ति टुडे. But it is just the composition of the sentence here.
Oh, this particular one becomes Shakti and
Sapthami. But Adharah, what we are trying to understand today is Adhar. Adharah kim bhavati?
Rame Sitayah bahu asakti asti.
Samichnam. Astu. अद्य हस्तः अस्ति, लेखनी अस्ति. कमला भगिनी, आर् यु एबल् टु मेक् ए सेण्टेन्स्? लेखनी इस् आन् टाप् आफ् द हेण्ड्. ऐ हेवन् गोट् द पिक्चर्स् फोर् देट्. लेखनी अस्ति, हस्तः अस्ति, हस्ते लेखनी अस्ति. हस्ते किं हस्ते सप्तमी विभक्ति भवति किमर्थम्? आधारः हस्तः अस्ति. अन्य प्रयोगः इस् स्नेहयति, विश्वसति, लैक् यत्र यत्र स्नेहः भवति, यत्र यत्र विश्वासः भवति, तत्र तत्र तस्य आधारः किम्? तस्य आधारः कोऽपि अन्य पुत्रः भवति, माता भवति, कोऽपि अन्य पुरुषः भवति, मित्रं भवति, कोऽपि दुर्जनः भवति, कोऽपि अन्य अपि भवति. विश्वासः एकं वाक्यं स्वीकरोतु. रावणः स्वशक्तयाम् अधिकं विश्वसति. रावणः स्वशक्त्याम् अधिकं विश्वसति. विश्वासः आधारः किं? स्वशक्ति. स्वशक्त्याम् आधारः भवति तत्र. So, is that so far clear? I'm trying to do it in a classroom today.
No.
No.
Okay. Let's take more examples.
So example, like mata putre vishvastah visheshtah kshamyata visheshtah sneheyati mata putre visheshtah sneheyati no putre sneheyati putre to adharah ke adharah putrah sneha asti sneha mata asti sneha asti
okay
स्नेहस्य अधारः किम् अधारः पुत्रः अस्ति सो पुत्रे सप्तमी विभक् पुत्रस्य
आधार माता पुत्रस्य आधार माता
स्नेहस्य आधार
स्नेहस्य आधारः पुत्र विश्वास विश्वासस्य आधारः पुत्र इत्युक्ते और विश्वासस्य आधारः पिता पितुः सो वेर एवर देर इज अ स्नेह और विश्वास दैट काइंड ऑफ फीलिंग इज देर यू यूज द सप्तमी विभक्ति Another usage is, for example, if there is a tadanam bhavati, tadanam, yasmin ange, tadanam bhavati, tatra eva saptami vibhakti bhavati. Kapole tadanam bhavati, kapolaha saptami vibhakti bhavati.
Okay.
तत्र एव सप्तमी विभक्ति बालकः अन्यबालकः कपोलः ताडितवान् बालकः अन्यबालकस्य कपोले ताडितवान् राक्षसी अस्ति सीता अस्ति राक्षसी अस्ति सीता अस्ति केशाः सन्ति केशाः सन्ति सो तत्र राक्षसी सीतायाः केशेषु गृहीतवती केशेषु शी हेल्ड् विद् हर् ताडनम् ओर् सम्थिङ्ग् यस्मिन् अङ्गे ग्रहणम् ओर् ताडनं भवति तत्र एव सप्तमी विभक्ति भवति चतुर्प्रयोगाः अत्र वयं दृष्टवन्तः प्रयोगः चतुर् वयं दृष्टवन्तः So, okay, now you will see the examples and you tell me which prayoga it is. Amerikayam kati rajyah santi. So, we can start with okay, Sangeeta Bhagini, we can start with you. Amerikayam kati rajyah santi.
उत्तर ददाति विभक्ति अमेरिकायां सप्तमी
अमेरिकायां सप्तमी विभक्ति अस्ति राज्याः राज्याः आधारः अमेरिका अस्ति
कति राज्य अमेरिकाः राज्याः अमेरिकाः आधारः राज्यः अस्ति
Okay. Rajyah Adhara America State. Other way round.
Okay.
Vimla Bhagini, next one.
Which one?
A second sentence.
So here only Ramaha, Vanam, Nadi, Lata, like that is there on my screen. saha tasmin sa tasyam, that one only.
I can see that screen is there. Sangeeta Bhagini, can you see it?
Uttar Amerikayam kati deshah santi.
Uttar Amerikayam kati, next, okay, now I got. Uttar Amerikayam kati deshah santi. Deshah adharam Uttar Amerika. Uttar Amerikayam. Saptami is Uttar Amerikayam.
Astu adhyah bhanuvasraha. Leave that one. Sentence number 6. Ramesh Mohde.
Varshe kati masaha santi. Varshe adhara. Varshe adhara.
Masaha adharaha varshaha asti. Varshaha. Astu dhanyavadah. Then Naina Bhagini, sentence number 6.
Mandire kati prakoshthaha santi. Mandire is saptami. Prakoshthaha adhara mandira. Prakoshtha kya uska?
Rooms.
Okay, rooms.
Prakoshtha. Oh, kosht. You see, in Hindi we can say kosht is like a square. Kosht. Uh-huh. Prakoshtha. Kosht. Then Bhanumati Bhagini. Sentence number 9.
Kakshayam kati ballukaha santi. Ashta or nava. Kakshayam kati balikaha santi. Balikasya adharam kakshayam.
Balikayaha
adharam kaksha.
Kaksha asti. Astu. Kamala Bhagini, dasham vakyam. Na shruyate Bhagini? Bhagini, na shruyate? So, anantaram puna agami. Sangeeta Bhagini, vadatu?
Ekadash?
Dasham, vakyam dasham, dasham vakyam.
Dasham. Dine kati ghantaha santi. Ghantayaha adharam dinam asti.
Ghantaha pulingaha asti. Ghantaha pulingaha asti. Goes like Ramaha.
Ghantanam. Ghanta naam adharam dinam asti.
So now we can we have done this last time. So we will do that later. So it's just what we want to do now is we will do this song in the end, but what we want to do, we want to do something to imagine that, say in pairs, Sangeeta Bhagini, Vimla Bhagniyaha Grahe Gachati. Sangeeta Bhagini, Vimla Bhagniyaha Graham Gachati. सो वार्तालापं करोतु. सङ्गीता भगिनी एकं मन्त्रं कृते गच्छति.
विमला भगिनी, भवान् किं करोति?
अहं पठामि. भवान् भवती किं करोति?
अहं पठामि, लिखामि च. वयं सप्तमीविभक्तीनां प्रयोगं
भवती सप्तमीविभक्तिविषयः अभ्यासं कुरुतः, अनन्तरं कः अभवत्? चायपानं ददातु. सा एकम् अतिथि आगतः.
त्वं जलम् इच्छति वा?
आम्, इच्छामि. धन्यवादः.
वेट करने को क्या बोलते हैं?
प्रतीक्षा.
प्रतीक्षा कर कुरुवा. अहं शीघ्रम् आनयति. आनयामि.
आनयामि. परीक्षा
अस्तु.
किञ्चित् समयः अत्र एव. यु केन् से जस्ट् स्टे हियर्. अत्र एव तिष्ठतु.
तिष्ठतु
अत्र एव तिष्ठतु. अहम् आनयामि. अस्तु. नौ रमेश् महोदय अपि आगतवान्. विम्ला सङ्गीता भगिन्याः गृहे. महोदय
स्वागतं. महोदय आगच्छतु, उपविशतु.
महोदय अन्म्यूट् करोतु. महोदय अन्म्यूट् करोतु कृपया. न अस्तु. महोदय न अत्र अस्ति. कमला भगिनी श्रु यू केन् ट्रै असु अवसु. कमला भगिनी अपि सङ्गीता भगिन्याः गृहे आगच्छन्याः गृहे आगच्छ.
स्वागतं कमला भगिनी. आगच्छतु, तिष्ठतु. सरि, उपविशतु.
उपविशतु, तिष्ठतु. द्वारे एव तिष्ठतु. आगच्छतु.
यदा लाक्डौन् पीरियड्
मीटर् द्वयं तत्र एव तिष्ठतु.
तर्हि
अहं बलकिया
भवती मां द्वारे
उद्यानस्य नलिकायाः एव जलं ददामि. अस्तु. नैना भगिनी अपि आगतवती.
ओ
रमेश महोदय सर्वे आगतवान्.
रक्षक आगच्छन्ति.
सर्वे आगतवन्तः. भगिनी कृपया चायपानं ददातु, चेर् आसन्दः ददातु.
भगिनी दट् मास्क् वै वाट् वी काल् फर् मास्क्
mask protection something to raksha something to do with the raksha vastram maybe
raksha
vastram
raksha vastram. Well anyway,
भवत्याः आसन्दे
उपविशतु उपविशन्ति सर्वे उपविशन्तः
धन्यवादः धन्यवादः
छाद्यति छाद्य छद्मुखं छद्मुखं मास्
अच्छा छद्मुखम् ओके इदानीं जलं स्वीकरोतु
धन्यवादः
धन्यवादः
रमेश महोदय रमेश महोदय न श्रूयते क्षम्यतां वदतु
सर्वे कुशलं वा सर्वे कुशलं
सर्वे कुशलं
सुप्रभातं नमस्ते सुप्रभातं नमस्कार
अत्र एव रात्रि अस्ति भगिनि
शुभरात्रि
अत्र सुप्रभातः अस्ति
भवती नगरे शाकाः मिलन्ति वा
शाकाफलानि शाकापुष्पाणि सन्ति
शाकानि मिलति
मिलति
आं शाकानि मिलन्ति
मिलति किमर्थम् अहम् उपयोगं करोति द्वितीयविभक्तिशाकानि अस्ति
भवत्याः नगरे मिलति वा
किञ्चित् किञ्चित्
मिलति
मिलति तो यू कुड् से लैक् फ्रोज़न् वेजिटेबल्स् शीतकुला ओ हिमाल् शीतकुलः शाकानि मिलति
अत्र सर्वत्र अस्ति एव्रिथिङ्ग् इस् क्लोस् हियर्
सो वयम् एकं कथा विषये पठामः एकं कथा दृश्यते वा पेच्छिकः ब्राह्मणः सो लेट् स्टार्ट् वित् कमला भगिनी पठितुं शक्यते वा भगिनि I think, Bhagini, your audio settings might not be right on your computer. Or your, if you try to use your phone, maybe that will work. Astu Bhanumati Bhagini, can you read first paragraph?
Haan Bhagini, haan Bhagini. Kasvishchit Aranye Chandakarma Nama Rakshasaha Vasati Sma Kadachit कश्चित् ब्राह्मणः तत अरण्यं आगतवान् राक्षसः तं दृष्टवान् शीघ्रं तस्य स्कन्धं आरुह्य उपविश्य सः
उक्तवान्
उक्तवान् भो ब्राह्मणः अग्रे गच्छतु इति पीतः ब्राह्मणः अग्रे गतवान्
समीचीनं सो कस्मिन् कस्मिन् इन्सम् अरण्ये इन्सं वने अरण्यमस्ति कस्मिंश्चित् एकः समये कस्मिंश्चित् अरण्ये चण्डकर्मा नाम राक्षसः वसति स्म स्म इस् यु एड् स्म इट् मेक् पास्ट् टेन्स् समथिङ्ग् हेपन्स् इन् द पास्ट् वसति स्म कदाचित् कश्चित् ब्राह्मणः तत् अरण्यम् आगतवान् कश्चित् ब्राह्मणः आगतवान् कुत्र आगतवान् अरण्यम् आगतवान् कदाचित् आगतवान् सम् टैम् हि केम् टु द अरण्यं द वनं सो राक्षसः तं दृष्टवान् हि सो देट् राक्षसः सो हु ब्राह्मणः राक्षसः ब्राह्मणं दृष्टवान् शीघ्रं तस्य स्कन्धम् आरुह्य उपविश्य सः उक्तवान् सो क्विक्लि हि क्लैम्ब्ड् ओन् हिस् शोल्डर् एण्ड् सेट् ओन् इट् एण्ड् सेड् भो ब्राह्मणः अग्रे गच्छतु ब्राह्मण मूव् फोर्वर्ड् अग्रे गच्छतु भीतः ब्राह्मण अग्रे गतवान् सो स्केर्ड् ब्राह्मण मूव् फोर्वर्ड् सो next I think Kamala Bhagini now is back let's try I haven't heard from Kamala Bhagini that's why try the next paragraph Bhagini nah does not I can't hear anything anybody else can hear her
here yeah we can hear you
you can hear Kamala Bhagini can you No, you can hear me, but can you hear Kamala Bhagini?
No.
Nobody can hear. Okay. Kshamyatam Bhagini. No. Naina Bhagini, can you read the next paragraph?
Gamana samaye brahmanaha drashtavan yat rakshasasya padadvayam kamalam eva komalam asti iti. तत् दृष्ट्वा विस्मितः राक्षसं पृष्टवान् पादद्वयं कथम् एवं कोमलम् अस्ति
पादद्वयं कथमेव कोमलम् अस्ति गमनं समये ब्राह्मणः किं पृष्टवान् भवतः हि सो देट् हिस् फीट् वर् वेरि साफ्ट् So, and he asked ki bhavatah kimartham bhavatah padau kamlam eva kamlam soft kamlam eva drishyate or kamlam eva see so padvayam katham how they are so soft रमेश महोदय नेक्स्ट् पेराग्राफ्
राक्षसः उक्तवान् मम एकं व्रतम् अस्ति अहं कदापि आर्द्रपादः भूमिं न स्पृशामि अतः एव पादद्वयं अस्ति इति अनन्तरं ब्राह्मणः राक्षसात् आत्मनः मोक्षोपायं चिन्तयन् आसीत्
भवान् राक्षसः उक्तवान् मम एकं व्रतम् अस्ति यत् ऐ हेव् ए डिसिजन् ओर् व्रतं देट् ऐ हेव् डन् अहं कदापि आर्द्रपादः भूमिना स्पृशामि देट् ऐ नेवर् टच् द भूमि आर्द्रपादः देट् हाफ् आफ् मै फीट् ऐ नेवर् टच् इट् अतः एव पादद्वयं तथा देट्स् वै मै फीट् आर् लैक् दिस् इति एण्ड् आफ् द सेण्टेन्स्
आर्द्रपादः
आर्द्रपादः आर्द्र इस् द फ्रण्ट् पार्ट् आफ् द सीट् ऐ नेवर् टच् इट्
अच्छा फ्रण्ट् पार्ट् ओके
सो ऐ नेवर् टच् इट्
ओके
देन् ही विल् से लैक् अनन्तरं ब्राह्म अतः एव पादद्वयं तथा सो देट्स् वै अतः एव पादद्वयं तथा देट्स् वै दे आर् लैक् दिस् इति अनन्तरं ब्राह्मणः राक्षसात् आत्मनः मोक्षोपायं चिन्त्यन् आसीत् सो ही वास् थिङ्किङ्ग् देट् हौ डु ऐ गेट् रिड् आफ् दिस् राक्षस फ्रोम् सेल्फ् हौ डु ऐ मोक्ष उपायं देट् हौ डु ऐ फैण्ड् ए मेथड् टु गेट् रिड् आफ् दिस् ही थोट् आफ् इट् चिन्त्यन् आसीत् that he was thinking about it. Next, Kamala Bhagini, can you read the next paragraph? Maybe half of it up to Ataha Idani. Nash Rohite Bhagini? Vimla Bhagini?
Can I read?
Yeah, Kamala Bhagini tried two, three times. Bhagini, do you want to try again? Can you put something in the chat so that we know what is going on? So, Vimla Bhagini, can you read four lines? Violet.
This one, no, after... इति उक्तवान् आफ्टर् दट् खलु उक्त्वा तावत् तावत् भवता अत्रैव स्थातव्यम् इति उक्त्वा
किञ्चित् कालान्तरं
ओके किञ्चित् कालानन्तरम् एकं सरोवरं दृष्टं तदा राक्षसः भोः ब्राह्मणः अहं स्नानं देवतार्चनं च कृत्वा आगच्छामि तावत् भवता अत्रैव स्थातव्यम् इति उक्त्वा ब्राह्मणस्य स्कन्धतः अवतीर्य सरोवरं गतवान्
सो तदा ब्राह्मणः किञ्चित् कालान्तरम् आफ्टर् सम् टैम् एकं सरोवरं दृष्टं हि सो ए लेक् तदा राक्षसः उक्तवान् किम् उक्तवान् भो ब्राह्मणः अहं स्नानं देवता अर्चनं च कृत्वा आगच्छामि देट् ऐ विल् डु द बेदिङ्ग् एस् वेल् एस् पूजा अर्चनं एण्ड् देन् ऐ विल् कम् बेक् तावत् भवता अत्र एव स्थातव्यं तावत् तावत् देन् बै देट् टैम् भवता बै यू अत्र एव स्थातव्यं यू शुड् स्टे हियर् टिल् देन् तावत् भवता अत्र एव स्थातव्यम् इति उक्त्वा ब्राह्मणस्य स्कन्धतः अवतीर्य अवतीर्यस् केम् डौन् सरोवरं गतवान् सो ही वेण्ट् टु द लेक् केम् डौन् फ्रोम् हिस् शोल्डर्स् एण्ड् वेण्ट् टु द लेक् अस्तु देन् वी हेव् सङ्गीता भगिनी डु यु वाण्ट् टु द लास्ट् लैन्
तदा ब्राह्मण एषः इति उक्तवान् सोरि का तत्र इति उक्तवान् ब्राह्मणः स्कन्धतः अत् अवतीर्य सरोवरं गतवान् तदा ब्राह्मणः एष राक्षसः स्नानं देवतार्चनं च कृत्वा मां निश्चयेन खादति अतः इदानीम् एव मया इतः धावनीयम् आल् रन् अवे व्रतभङ्गभयात् राक्षसः माम् अनुसूर्तं न शक्नोति इति.
सो हि अस्तु. सो
टेल् द मीनिङ्ग्.
हा, ऐ विल् टेल् द मीनिङ्ग् इन् द मीनिङ्ग्. सो इति उक्त्वा, having said that, brahmanasya skandataha avatirya, he came down from, avatirya is to come down, skandataha from his shoulders, srovar gatvan, tada, then brahmanaha kim karoti, eshah rakshasaha, this demon snanam devta archanam cha kritva, having had his bath and puja, maam निश्चयेन डेफिनेट्लि हि विल् ईट् मी. अतः हेन्स् इदानीं नौ इदानीम् एव नौ नौ ओन्ली बै मी मया इतः धावनीयं. सो ऐ शुड् रन् अवे नौ ओन्ली. सो ओर् एम् बै मी ऐ शुड् बि रन्निङ्ग् व्रत भङ्गभयात् फ्रोम् द fear of breaking the fast, rakshasah maam anusartum na shaknoti, he can't follow me due to the fear of the breaking the fast iti. So saha iti chintitva, having thought this, tathah then vegena dhavitvan, brahmanah vegena dhavitvan, rakshasah dhavitvantam तं दृष्ट्वा अपि व्रतभङ्गभयात् गृहीतुं न अनुधावितवान्. सो ही कुड् नाट् फालो हिम् इवन् दो राक्षसः सो द रन्निङ्ग् ब्राह्मणः धावन्तं तं दृष्ट्वा रन्निङ्ग् ब्राह्मणः सा सो इट् ओल्सो, बट् व्रतभङ्गभयात् बिकास् आफ् द fear of the breaking the fast, grihitum na to hold him, to get him, na anudhavitvan. Anudhavitvan is to follow, that he could not, he did not run after him. Evam brahmanasya pranah rakshitaha. So in this way, brahmanah pranah were saved. So the moral of this is prichkena sada bhavayam purushena vijanata rakshasendra grihito api pranam mukto dvijah purah pura. So basically, when you are even asking a question, that also should be some knowledge in that. You just don't ask silly questions. But then with that, even though he was dvija is mean the brahmanaha, dvija pura in old time, the brahmanaha, even he was in the hold of the rakshasa, yeah, he still got saved. That is the moral. So it was a very rich, like sentences are quite complicated here, but I think by reading only, I find that different types of usage you get. Otherwise, we are always saying just simple sentences like gachati, agachati. So here you will see the points that I wanted to make, like iti, we have seen iti before.
Yeah.
Iti is like to close the quotes. Sma, sma is in the past when you are doing something, that aham bhojanam khadati sma, that I had my food. Aham and nagaram gachati sma, that I went to the city. So it's not I'm going to the city, I went, it suddenly becomes went. Then there is also we have used kritva So anything, having done something, like devarchanam cha kritva. So like khaditva, having my food, chayam pivami. Bhojanam or phalam khaditva chayam pibami. So after eating, finishing one kriya, will do the second kriya. So here he is saying like snanam kritva. Sa mam nishchena khadati. So he will, after finishing that, he will definitely eat me. So then there is this another sentence, evam maya itaha dhavniyam. Maya, so when you are saying like dhavniyam, I should run, dhavniyam, dhavati is to run, dhavniyam, I should run. So by me, I should now run. Another atmanaha. Atmanaha is like self. Atmanaha, the shashti vibhakti of atman. Any other question? I think there is anything else that is not clear. You can ask now.
Yogini, this pratyekena. Can you come right side? Can you come right side?
Right side.
Yeah. Down. Moral of the story. No, the moral of the story.
What is it? Pritcha?
What is the meaning of Pritcha Kena Sada Bhavyam Purushena Vijanata? What is the meaning of this?
Vijanata is like you will have to, with some knowledge, Vijanata. Purushena. Purushena by the Purush, by somebody. Vijanata. With the Vijyan, with the Purush, Bhavayam, Bhavyuktaha. Sada Bhavyuktaha. Vichakena. Vichakena Purushena Vijanata Sada Bhavayam. That is the sentence. So bhavayam. Bhavayam is should be. Yeah. Like we have seen. Kripya, mute karo to, huh? When you are talking to with the other members of the family. So otherwise that gets recorded as well. Here we have like sthatavyam. Sthatavyam, like dhatavyam. We've seen here dhavaniyam, sthatavyam, dhavaniyam, bhavayam. So it's like should be done. Something should be done. Sthatavyam, to stay here. I should stay here. Atreva sthatavyam. Tavat bhavta atreva sthatavyam. That you should stay here only. Then here it was dhavaniyam, that I should run. Here, bhavayam, that it should be bhavpurvak.
Somewhere we are using for should vyayam and dhavaniyam. The two words are different. Where both place it is should.
Yeah, it is should. Like where we like sthatavyam, dhavaniyam. Uh-huh. And bhavayam.
So sandhi vichet karke, can you tell us how it is?
It is not sandhi, like Bhagini, it's a different form of the words. Like we have, it's another, it's called the krit pratyaya. So we, like we have, I've told about tva.
Kritva.
Kritva is like having done Kritva. Something. When it's like a vayam and in the end, yeah, niyam, that niyam, yasyam, that is a different form of word. So, we will study that, but I think it's an interesting story. I should include that today.
Okay.
So it is just showing the richness of the language that we can how many different ways we can use. So evam, like here, evam brahmanasya pranaha rakshitaha. So what does that mean? In this way, pranaha rakshitaha. So or you could also say pranaha rakshitaha brahmanena, that by the brahmana prana was his life was saved. So that is the basically sense of it, just to have the different style. So it was from quite an old book actually. That's quite interesting. So we will, if there is, because I will share it, and next week you can ask, read it in your as a homework, and we can have more questions next week.
Anusurtam means? Anusurtam?
Yeah.
Anusurtam. Last line, left page. Rakshasa mam.
Mm-hmm.
Rakshasa mam. Mam. Anusurtam.
Mam.
Last line, huh?
Yeah, mama anusritum na shaknoti.
What is anusritum?
Anusritum means that he can't follow me. Anusritum. Tum is when we use, for example, we use khaditum, dhavitum, that gantum, gatum. Tum is a tuman pratyaya. Tuman pratyaya comes when you have a purpose. For example, aham swasthena khadami. Or khaditum aham, to eat aham apnam gachami. Or har graham gachami, that I go to a restaurant to eat khaditum. Aham patshala gachami, that I go to the patshala to read, to study. So that is a tuman pratyaya. So there is, in this we have seen the tuman pratyaya, we have seen the tavyat, which is tavyam, or niyam, tavyat pratyaya, that is bold. And then we have also seen tavyat, tumun, and
niyam.
Attitude as well. This in one tuva. So we have seen three different types.
Yeah.
Try to translate it yourself, see that could be quite useful. And if there is any problem, we will definitely revise it next week. And practice more of the Atithya. Next week, who is going to be the Atithya? I will tell you. Next week, Rajesh, Ramesh Mode. Everybody is going to come to your house. That's cool. Yeah.
Swagatam.
Swagatam. Agra Sattaha Vayam Agatvantaha. Agamishyami.
Bahu Vyanjanam
Pakam Siddham Karotu. Samosa, Kachori, Sarve, Ichanti.
Kajyami api. Ready, keep ready.
Make a list.
Tadanantaram Dayasivami, Tadanantaram. After
Kajyam. Yeah, I'm a pura Saptam, I'm a Vratam Sarumi. So that I can eat more sweets.
where I'm going to share the Yam Vedika, Ekasta Mantra. Just one second, where is the share going?
Bhagini, only 9:35. Only 9:35.
We like your class so much that we don't want you to finish so quickly.
Oh, I'm always confusing because there is other class that is always 1 hour, and even if I'm 1 minute late, those children are like, oh, you are gone over.
Vayam kakshyam bahu sammichinam ichati.
Mayam bahu rochate. That's how it is. Mayam lajjitam bahu rochate. Mayam him
idanim kakshyam bahu rochate.
So let's because in this slide for the chapter 14 they had very little slide, but we still have that song that we had to do, Jyoti Rudeti. We haven't done that. I thought the time was finished and we don't have enough time, but we will do another topic. And it's okay even if we are as long as you are understanding, then I don't mind moving fast. And I think most of you can understand. If it's going too fast, then do let me know. So are you able to see the let me do this first. Asti. Gitamasti. Kripya anugayantu. Are you able to see the wording?
Bhagini.
No, Bhagini.
Full screen will be referred.
Na, Bhagini.
Better now?
Dhanyavad. Dhanyavad.
Jyoti Rudeti. Navayo Jyoti Rudeti.
You know, like you always say that you like my class.
Yes, Bhagini.
I'm so glad that you like it.
Bhagini. We like it more.
Anandena. So let's try again. Jyoti Rudeti. I will also put the YouTube.
Tato me. Rajini, you are better than
YouTube. Better than
I don't know about that.
Vimla
Bhagini is best.
Abhinav Lokahitaishi
भारत जननी समुद्र गत
भारत जननी हृदय समुद्रत
सत्य सनातन ज्योति
सत्य सनातन ज्योति
भासुर चरित पुरनाचार्थम
भासुर चरित पुनारचनार्थम
समुदित मंगल ज्योति
समुदित मंगल ज्योति
जागरै तुम्बिह समाजम
जागरै मिह सुप्त समाजम
लोकैतु मनव मार्गम
लोकैतु मनव मार्गम
पूर्वज वांछा मिखलम चरीर चिरात क्षमता
पूर्वजवांचा मखिलमचिरात्
साधयितुमुपैति ज्योतिरुदेति नवयुग ज्योतिरुदेति
ज्योतिरुदेति नवयुग ज्योतिरुदेति
मुनिजन दर्शित पथमा आश्यत इदम् इति स्मुज्ज्वल ज्योति प्रखरं धैयम् विदधत अनुपम
विदधत अनुपम
अनुपम
वृद्धि उपेति
वृद्धि उपेति
ज्योतिरुदेति नवयुग ज्योतिरुदेति
ज्योतिरुदेति नवयुग ज्योतिरुदेति
सो दैट्स इट आई थिंक आई डिड आई प्रैक्टिस्ड अ लॉट बट इट डिडंट वर्क वेल आई विल डेफिनेटली गेट इट नेक्स्ट
टाइम द YouTube डजंट वर्क इन दिस केस
आई ट्राइड इट डजंट So let's just do the revision. We learned about the Adhar in four different cases where Saptami Vibhakti is used. So let's see if anybody can explain all the four different cases. Just simple, like. Ramesh Mohde, can you explain? all the four cases?
Light, Jyoti, light raises.
Not the meaning of this. We are not trying to do the meaning of this. We are revising the Saptami Vibhakti, where all the, there were four different places where it can be used. So, which should I try? Adhar it was. Let him try and then I'll come back to you, Bhagini. 2, 3.
So, on this sloka, song I have to tell? Where is this Saptami Vibhakti?
Like in here. We had the Saptami Vibhakti. So, Adhar is like a
Jashika. Adhar is.
Mute karoti bhavan, mute karoti. Mute karoti. Bhagini, can you explain that, please? I think there is too much noise there.
Saptami Vibhakti, wherever there is Adhar, Saptami Vibhakti is used. So, Jalam, चषके अस्ति जलस्य आधारः चषकः अस्ति दैट इज व्हाई
फोर डिफरेंट केसेस वी डिस्कस
दिस इज वन आधार वेयर एवर देयर इज अ रिलेशनशिप स्नेहियति सो पुत्रे स्नेह पुत्र माता एंड पुत्र मातास्य स्नेह इज ऑन पुत्र So isne is the adhar, so putre is the adhar, so this is putre, mata putre visheshta isne hati. Same, that second case. Then vishwasa, vishwasa is one. When something is on the table, lekhani is asandha asti. Fourth case is what? Asakti. Asakti is isne all are same category or different?
Asakti alas.
Okay. So asakti is affection.
One more thing is missing. Visheshi Adhar. Visheshi.
Visheshi.
दट् मम संस्कृत अध्ययने महती आसक्तिः अस्ति
विषयरूपाधार अस्ति ताडनं चतुर्थ
कपोले ताडनं
डोण्ट् फर्गेट् दट् नौ विस्मरतु यस्मिन् अङ्गे ग्रहणं तस्य सप्तमी विभक्ति भवति यस्मिन् अङ्गे ग्रहणं भवति ताडनं भवति तस्य अङ्गस्य सप्तमी विभक्ति भवति चतुर्वि प्रयोगः नेक्स्ट् वि
केन् वि से मम कण्ठे कण्ठाभरणम् अस्ति
कण्ठाभरं नेक्लेस् इस् ओन् योर् कण्ठे देट् इस् वन् बिकास् देट् इस् आधार्
But that is like adhar for like for a place.
Oh,
it is not like sadhanam, it's not that, but it is still saptami vibhakti.
If we say we have viswas in our God, then
then you will definitely use saptami vibhakti.
Devi vishwasa asmi, aham devi vishwasa asmi,
vishwasam karomi, karomi.
I think Bhanumati me. Okay, no question to master.
Deve Vishwasam Karomi is correct.
So you will have a Vishwas in your God. So you will say like Rame or Deve. So if you are saying Bahuvachnam, then Deveshu.
Oh, okay. Vayam, we all have
Vishwasa. Vayam, Deveshu, Vishwasaha, Vishwasaha, Bhavanti.
Bhavanti.
So it will be. Astu, Bhanumati Bhagini, can you hear me?
Now I am able to hear you.
Okay. So then after that, we did the ekam sambhashanam, and then we did the katha. So Bhagini, Bhanumati Bhagini, now we can explain. What do you remember from katha? Different prayogah. So we did different types of sentences.
Yes. New words.
Do you remember any of that?
Rakshasaha, Brahmanaha,
Kritva.
So, the words were like Avatirya. So, or then they were aruhya, like uparcharna, upavishya. So he climbed on it and on it. So we learnt about Kritva. Here it is Kritva. Then we learnt about Tavyam. Tatavyam. Dhavaniyam.
Dhavaniyam.
So, Vimlam Bhagini, do you want to remember? Say anything? Do you remember anything?
Anudavyatam.
Very good. When it is like to follow. Oh, anudhavanam karoti. So, anudhavanam. Here, anudhavitvan. Naina Bhagni?
Yes.
Anything to add?
I didn't understand that Subhan things.
You did not understand what?
Subant, use some word like Subhan things or what? I didn't understand that word, what they mean.
So it's not possible to get everything, but if whatever what I'm trying to understand here, if you have understood something, just mention that.
Oh, whatever I understood that I have to mention. Okay. Brahman, Uttatava, Rakshas, Kapha, Vatshaya.
Too much noise, no?
Patham, Padvayam, Komalam.
So,
Brahman, Vismitaha. Vismitaha, Saha, Rakshasa, Padvayam, is Komal.
So next time what we can do, I think it will be, what is in the next one, we have so we will learn new words next time as well, and I think there will be, I'm just looking at what is in the, so if it is less in the slides, I will add some from the what's it called, the katha or something else to make it good learning lesson. Okay, astu.
Bhagini. Vayam deveshu viswasaha bhavamaha, correct?
Oh, very good. Very good.
So, practice book, Chatrapur, practice book is very good.
And Abhyas Pustakam.
It's very, very good.
Because yes.
Because I have mixed up and I have reached to third lesson. But Saptami Vibhakti I have not done yet. I have reached up to fifth. Panchami only.
Panchami Vibhakti? I think Saptami Vibhakti comes first. I don't know if it's in the...
I don't know. My first two lessons were very easy for me to do. So I finished it. Third one, I'm finding stuff going. This is Tritiya and Chaturthi and Panchami. Maybe then I thought I know it without realizing. But what you taught today is rather tough to understand.
So from the Abhyas Pustakam, look at like 25.1. Section 25.1, which is Katva. Katva.
It's open. Abhyas Pustakam page.
And then we also covered Sma. Sma.
Yes.
On 24.1.
24.1
and? 25.1.
Okay, I'll do that.
Look at that. And then I think Tavyat Shabdaha. Then we also did Tumun, actually. Tumun. Tumun is on page section 31.1.
Okay.
So I think quite a lot we have covered from the Abhyas Pustakam. So continue with the practices that you are doing. Bhavishya Kalaha, we haven't done, I think. But it should be easy, Bhavishya Kalaha. Astu. So, Atra Eva Sthapya Maha.
Dhanyavad.
Let's do the Ekakta Mantra first. So. Yam.
यम वैदिका मंत्र दृश पुराण
इंद्रम यमम
मातरिश्वानम इंद्रम यमम मातरिश्वानमाहु
एतान् विनोदे वचसि मे
वेदान्तिनो निर्वचनीयमेकम्
ब्रह्मशब्देन विनिर्दिशन्ति
यं ब्रह्मशब्देन विनिर्दिशन्ति
क्षेमाय मीशं
शैवाय मीशं शिव इत्यवोचन्
यं वैश्वना विष्णुरिति स्तुवन्ति
यं वैष्णवा विष्णुरिति स्तुवन्ति बुद्धस्तथा हन्ति ते बौद्धजैनाः
श्रीयकाले
सत् श्री अकाले तिचि सिक्ख सन्तः शास्त्रेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्या
यं प्रार्थयन्ते जगदीशितारम्
यं प्रार्थयन्ते जगदीशितारम्
सः एक एव प्रभुर्द्वितीयः
स एक एव प्रभुरद्वितीयः
धन्यवादः
धन्यवादः
पुनर्मिलामः
शुभरात्रि
शुभरात्रि.